एसा रेडियो नेपालः सम्प्रति समाचारः श्रुयन्ताम् प्रवाचकः उपेन्द्र दाहालः प्रधानमन्त्रिणा केपी शर्मा ओलिना झापा जनपदस्य दमक नगरपालिकायाः तृतीय वडा क्षेत्रस्य दाबगाछीवर्तिनः दमक व्यापारिक केन्द्रस्य ह्य उद्घाटनम् विहितमस्ति। उद्घाटन कार्यक्रमे प्रधानमन्त्री ओली अगदत् झापा जनपदस्य दमक व्यापारिक केन्द्रम् नूतनरीत्या कथम् विकास कर्तुम् शक्यते इत्यस्मिन् विषये निदर्शनमस्ति। तदवसरे प्रधानमन्त्री ओली विश्वस्य विपुल राष्ट्रेष् अपि आर्थिक स्रोतसः कृते एवं विधानि उच्च भवनानि निर्मितानि सन्तीति उदाहरणम् प्रददत्। व्यापारिक भवनस्थलम् आधुनिक नगरम् विधास्यते इति उदघोषयत्। मुख्यापणस्थलात् चतुः किलोमीटर मित दूर्याम् स्थितम् अष्टादश तलयुतम् भवनमेतत् एकाब्जम् त्रिषष्टिः कोटयः चतुःपञ्चाशद लक्षाणि चेति रूप्यकाणाम् व्ययेन निर्मितमस्ति। चतुर्विघाः षोडश कट्ठा चेति परिमिते क्षेत्रफले प्रसृतम् नेपालस्यैव उच्च भवन व्यापार भवनमेतद् वैदेशिकानाम् स्वदेशीयानाम् च पर्यटकानाम् प्रमुख गन्तव्यस्य रूपेण विकसयितुम् सर्वकारस्य अवधारणा वर्तते। ह्य एव प्रधानमन्त्रिणा ओलिना झापा जनपदस्य मेचीनगर नगरपालिकायाः चतुर्थ वडा क्षेत्रस्य आमडाँडी स्थानवर्तिनः मानव सेवाश्रमस्य जनपद कार्यालय भवनस्य उद्घाटनम् मानव सेवा स्मारकस्य शिलान्यासश्च विहितौ स्तः। प्रधानमन्त्री ओली पत्न्या राधिका साक्येन सह भवनमेतत् उद्घाटयत्। कार्यक्रमे आश्रमस्य कृते भूमेः प्रदाता स्थानीयः रामबहादुर प्रधान सपरिवारम् सम्मानितः आसीत्। तदवसरे प्रधानमन्त्री ओली आश्रमस्य भवन निर्माणस्य कृते स्वस्य एकमासस्य वेतनम् प्रधानमन्त्रिणः पत्नी राधिका साक्यश्च मासद्वयस्य निवृत्तिभरणम् च प्रदातुम् उदघोषयताम्। संयुक्त राज्य अमेरिका देशस्य दक्षिण मध्य एशिया विषयक सहायक विदेश मन्त्री डोनाल्ड लुई ह्य नेपाल भ्रमणे आगतोऽस्ति। स्वकीयस्य दक्षिण एशियाई भ्रमणस्य क्रमे सहायक विदेश मन्त्रिणा लुई इत्यनेन सर्वकारस्य उच्चस्तरीय नेतृत्वेन नागरिक समाजस्य प्रतिनिधिभिश्च सह शिष्टाचार मेलवार्ता करिष्यते इति नेपालस्थितेन अमेरिका देशीय दूतावासेन ज्ञापितमस्ति। अत्रान्तरे नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवा इत्यनेन सह अमेरिका देशीय सहायक विदेश मन्त्रिणा लु इत्यनेन ह्य मेलवार्ता विहितास्ति। बुढा नीलकण्ठवर्तिनी सभापतेः देउवाविधस्य निवासे सम्भूते मेलने अनयोर्मध्ये द्विपक्षीयस्य हितस्य विविधेषु विषयेषु सामयिक विषयेषु च विमृष्टमिति सभापतेः देउवाविधस्य स्वकीय सचिवालयेन ज्ञापितम् वर्तते। तथैव अमेरिका देशीय सहायक विदेश मन्त्रिणा लुई इत्यनेन नेकपा माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन सहापि मेलवार्ता विहितास्ति। तदवसरे अध्यक्ष प्रचण्ड अमेरिका देशीय सहायक विदेश मन्त्रिणा लुई इत्यस्य नेपाल भ्रमणम् फलदायी भवेदिति विश्वासम् अभिव्यनक। प्रतिनिधि सभाया राज्य व्यवस्था सुशासन समित्या संघीय सर्वकारीय सेवाया संगठन संचालन सेवानाम् शपथस्य सम्बन्धे व्यवस्थायी निर्मितस्य विधेयकस्य संशोधन कर्तृभिः विमर्शनम् प्रारब्धमस्ति। समितेः ह्यस्तनोपवेशे संशोधन कर्तृभिः जनतायै राज्येन प्रदीयमानम् सेवा प्रवाहम् सरलम् सहजम् सुलभम् च विधातुम् सर्वकारीय कर्मचारिभिः प्रवर्तनीयम् परम् कर्मचारिणः व्यक्तिगत लाभाय स्वस्यैव सेवा सौविध्यानाम् प्राप्त्यै चैव प्रयासरताः भवन्ति त्यतः अवस्थेयम् समापनीयेति धारणा उपस्थापिता आसीत। उपवेशे संघीय विषय सामान्य प्रशासन मन्त्री राजकुमार गुप्ता संघीयतायाः क्रियान्वयनाय सर्वकारीय सेवा विधेयकम् ऐतिहासिकम् शीर्षतीति विश्वसितवान्। उपवेशे मुख्य सचिवः एकनारायण अर्यालः सर्वकारीय सेवाधिनियमस्य अभावेन सर्वकारीय कर्मचारिषु नैराश्यम् वर्धित्वा सेवा प्रवाह एव समस्या सृष्टास्ति त्यतः तत्कालम् अधिनियमस्य पारितीकरणाय बलम् प्रादात्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ जनतायाः सूचना प्राप्तेः अधिकारम् प्रभावकारिणम् विधातुम् संघीय मन्त्रालयम् सांविधानिकायोगान् विभिन्न निकायानाम् प्रवक्तृन् निश्चित सूचना अधिकारिणश्च दायित्ववाहिन भवितुम् अनुरुणद्धि। मन्त्रालये ह्य आयोजिते संघीय मन्त्रालयस्य सांविधानिक आयोगानाम् निकायानाम् च प्रवक्तृभिः सह त्रैमासिक समन्वयोपवेशे अन्तरक्रिया कार्यक्रमे च मन्त्री गुरूङ एतदर्थं प्रवक्तृन् सूचनाधिकारिणश्च व्यवस्थितान् विधातुम् आवश्यक स्रोत साधनानां प्रशिक्षण सञ्चालनस्य च विषये सहयोगाय आत्मनः तत्परतास्तीति अगदत्। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेल निगदति स्वास्थ्य संरचनानाम् अतिरिक्तं सुधारं कृत्वा स्वास्थ्य सेवा अतिरिक्तं प्रभावकारिणी विधास्यते। राष्ट्रिय जनस्वास्थ्य दिवसस्य अवसरे नेपाल जनस्वास्थ्य संघेन ह्य आयोजिते कार्यक्रमे मन्त्री पौडेलः स्वस्थ नेपालस्य स्वस्थ भावि सन्ततेश्च निर्माणस्य अभियाने सर्वैः संलग्नैर्भाव्यम् इत्यत्र बलं प्रादात्। कार्यक्रमे स्वास्थ्य जनसंख्या मन्त्रालयस्य सचिवः डा रोशन पोखरेलः स्वास्थ्य क्षेत्रे जनस्वास्थ्याधिकृतस्य आवश्यकता स्थिति अभासत। सप्तचत्वारिंशदुत्तर द्विसहस्रतमस्य वैक्रमाब्दस्य मार्गशीर्ष मासस्य त्रयोविंशे दिवसे नेपाल जनस्वास्थ्य संघस्य स्थापना विहितासीत्। संस्कृति पर्यटन नागरिक उड्डयन मन्त्री बद्री प्रसाद पाण्डे भासते सर्वकारस्य नैज क्षेत्रस्य च संयुक्तेन प्रयासेन पर्यटन क्षेत्रस्य विकास कर्तुं शक्यते। कैलाली जनपदस्य धनगढ़ी स्थाने ह्य आयोजितायां सुदूरपश्चिम प्रदेशस्य पर्यटन विकास रणनीति सम्बद्धायाम् अन्तरक्रियायां मन्त्री पाण्डे नैज क्षेत्रस्य अग्रेसरताया अभावे केवलं सर्वकारस्य प्रयासेन पर्यटन क्षेत्रस्य विकास न सम्भवतीति प्रावोचत्। सुदूरपश्चिम क्षेत्रं पर्यटनस्य कृते गन्तव्य स्थलत्वेन विकासार्थं प्रशस्ता सम्भावना सन्तीति चर्चयन् मन्त्री पाण्डेय एतदर्थं पूर्वाधार निर्माणाय वातावरणं निर्मेयम् इत्यत्र बलम् अदात्। सहकारी संस्थाया वित्तापचलन सम्बद्धस्य संघटितापराध सम्बद्धस्य च अभियोगस्य अनुसन्धानस्य क्रमे कास्की जनपद प्रहरिण निग्रहण स्थितं पूर्व गृहमन्त्रिणं राष्ट्रिय स्वतन्त्र दलस्य सभापतिं रवि लामी छानेविदं पुनः चत्वारि दिनानि निग्रहण स्थापयितुम् अनुमति प्रदत्तास्ति। समयावधेर्वर्धनाय ह्य कास्की जनपद न्यायालये उपस्थापितं लामी छानेविदं न्यायाधीशस्य हिमलाल बेलवासे इत्यस्य न्यायपीठेन अतिरिक्तानि चत्वारि दिनानि पुनः प्रहरी निग्रहणे स्थापयितुम् अनुमति प्रदत्तास्तीति कास्की जनपद न्यायालयस्य सूचनाधिकारी सूरज अधिकारी असूचयत। गत कार्तिक मासस्य द्वितीय दिवसे काष्ठमण्डपाद निगृह राष्ट्रपादलस्य सभापति लामी छाने पोखरा स्थानं नीतो वर्तते ततः अधुनावधि लामी छाने प्रहरी निग्रहणे एव वर्तते। नुवाकोट जनपदस्य किस्पाङ ग्रामपालिकाया प्रथम वडा क्षेत्रस्य नुचेत स्थाने पुत्रद्वयेन सह माता मृतावस्थायां प्राप्ता वर्तन्ते। स्वस्यैव गृहे अग्निदाहस्य अवस्थायां चतुर्विंशति वर्षीया चन्दीमाया तामाङ तदीयो पञ्चवर्षीय पुत्र रोशन त्रिवर्षीय पुत्र रोमन च मृतावस्थायां प्राप्ता इति नुवाकोट जनपद प्रहरी कार्यालयस्य प्रमुख प्रहरी उपरीक्षक शान्तिराज कोइराला अज्ञापयत्। बाजुरा जनपदस्य मार्तडी स्थाने स्कार्पियो यानस्य दुर्घटनायां द्वौ जनौ मृतावस्था। मृतकौ कञ्चनपुर जनपदस्य भीमदत्तनगर पालिकाया अष्टदश वडा क्षेत्रस्य एकत्रिंशत् वर्षीया गायत्री पन्त द्वापञ्चाशत् वर्षीया राधिका भट्ट च वर्तेते इति प्रहरिणा ज्ञापितमस्ति।